सर्वेषां स्वागतं. ध्येयमन्त्रेण वर्गम् आरम्भं कुर्मः. अस्तु भगिनी, आरम्भं करोतु.
पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्. संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्. आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्. हिन्दुधर्मं समाजं च, पवित्रां संस्कृतिं तथा, संरक्ष्य ननु कुर्याम विश्वं शान्तिं समन्वितम्.
उत्तमं भगिनि. विश्वं शान्ति एव,
विश्वं शान्ति एव,
न न विश्वं शान्ति समन्वितं, शान्तिं न, शान्ति
शान्ति समन्वितम्.
उत्तमं भगिनि, बहु धन्यवादः. भवती सम्यक्तया उच्चारणं कृतवती संस्कृतम् इति, सम्यक्.
धन्यवादः भगिनि. ॐ शान्ति शान्ति शान्ति, हरिः ॐ श्री गुरुभ्यो नमः, हरिः ॐ.
उत्तमम् उत्तमम्,
धन्यवादः भगिनि.
धन्यवादः. अस्तु, अभ्यासं प्रति गच्छामः. अत्र कः, अस्तु कीर्तिकि भगिनि, भवती एव आरम्भं करोतु. किं कर्तुम् इच्छति, अकारान्त वा आकारान्त वा ईकारान्त वा नपुंसकलिङ्गं वा अथवा सर्वनामपदं वा?
भगिनि, ऐ हेव् प्रिपेर्ड् टु अकारान्तः अने इकारान्तः.
अस्तु, ईकारान्त वा ईकारान्तं वदतु.
ईकारान्त. नलिनी अस्ति, राधा नलिनीं पश्यति, माला नलिनीं सह गच्छति.
नलिन्या सह
गच्छति. कुमुदा नलिन्यैः माला ददाति.
नलिन्यै एव, नलिन्यै विसर्गः नास्ति.
नलिन्यै माला ददाति.
मालां ददाति.
सरला नलिनीया भोजनं स्वीकरोति.
नलिनीतः अथवा नलिन्याः?
नलिन्याः भोजनं स्वीकरोति. नलिनीस्य गृहं सुन्दरम् अस्ति.
अत्र नलिन्याः गृहं
भगिनि, नलिन्याः
किमर्थम् इत्युक्ते स्त्रीलिङ्गम् अस्ति चेत् याः एव आगच्छति. पुल्लिङ्गे अस्य.
नलिन्याः गृहं सुन्दरम् अस्ति. नलिनीये बुद्धि अस्ति.
अत्रापि याम् आगच्छति. नलिन्यां बुद्धिः अस्ति. नलिन्यां
नलिन्यां बुद्धिः अस्ति.
अस्तु, अत्र वदामि, नलिनी नलिनीं नलिन्या नलिन्यै नलिन्याः नलिन्याः नलिन्याम् अथवा नलिनीतः नलिन्याः नलिन्याम् इति रूपाणि सन्ति. उत्तमं भगिनि, केतकि भगिनि,
धन्यवादः.
श्रीनिवास महोदय,
नलिनीतः
भोजनं स्वीकरोमि. नलिनीतः अथवा नलिन्याः भोजनं स्वीकरोमि.
षष्ठी,
पञ्चमी.
पञ्चमी विल् बि नलिनीतः.
नलिनीतः
नलिन्याः इस् षष्ठी.
भगिनी, नलिन्याः न आगच्छति.
नलिन्याः इस् आल्सो पञ्चमी. नलिन्याः अथवा नलिनीतः.
सो सरला नलिन्याः भोजनं स्वीकरोति, देट् इस् रैट्?
सम्यक् सम्यक्.
अस्तु भगिनि,
अस्तु
सारी बेनि व्हाट टू बी डन आई वाज नॉट इन लास्ट क्लास व्हाट इज व्हाट शुड बी डन
ओके सो
विद ऑल द विभक्ति
आम 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 या
नीड टू फॉर्म सेंटेंस विद ऑल द विभक्ति
आम प्रथमाविभक्तितः सप्तमविभक्तिपर्यन्तम् एकवचनरूपाणि उपयुज्य महोदय सो यु केन् यूस् द शब्दाः आर् यु केन् यूस् सर्वनामपदानि अस्तु तर्हि आकारान्त सीता अथवा रमा इति सीता
सीता रामस्य पत्नी ओके सीतां रावणः व्हाट इज द वर्ड
अपहृतवान् महोदय अपहरितः देन् इट् हेस् टु गो टु द कर्मणि प्रयोग अपहृतवान् सीतां रावणः अपहृतवान् उत्तमम्
सीतया
सह सो यु एड् सह रैट् अवे सीतया सह
हनुमान् वास् ब्लेस्ड् बै सीता दट्स् वाट् इस् द वर्ड् ऐ वास् ट्रैङ्ग् टु यूस् विथ् सीतया
सो देन् अगेन् इट् बिकम्स् दट् कर्मणि प्रयोग ब्लेस्ड् बै सीता
ओके देन् सीतया I'm not able to form a sentence on
Ramah kaya sah vanam gacchati
sitaya sah ramah vanam gacchati
gacchati astu
chaturthi
anjaneyah kasyai
sitayai
anguliyakam
अङ्गुलीयं ददाति
अङ्गुलीयकं ददाति अस्तु
अङ्गुलीयकं ददाति पञ्चमी आञ्जनेयः सीतायाः आभूषणम्
आभूषणं
स्वीकृतवान्
स्वीकृतवान् उत्तम
स्वीकृतवान् षष्टि सीतायाः जन्मस्थानं मिथिला
मिथिला उत्तमम्
ओके सीतायाम् उत्तमगुणाः सन्ति
उत्तमं सम्यक् सम्यक् महोदय बहु सम्यक् अस्तु अग्रे सन्ध्या भगिनि
भगिनि केन ऐ speak a little later because right now I'm having to wear a mask because somebody is like
Oh, asti bagina to bagini nischayen
thank you
dhanyawad savita bagini
aam bagini what's your name
bhavati kim ichchate akaranta pullingam va आकारान्त अथवा ईकारान्त स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा
अकारान्त पुल्लिङ्ग भगिनि
अस्तु
रामः रामः दशरथस्य पुत्रः
पुत्रः उत्तमं रामः दशरथस्य
पुत्रः रामं वनं गच्छति
रामः इस् डूयिङ्ग् दि एक्ट् आफ् गोयिङ्ग् टु द वनं सो इट् विल् बि रामः वनं गच्छति
ओके इवन् दट् इस् रामः दशरथस्य पुत्रः रामः वनं गच्छति
रामः वनं गच्छति
रामं वचनेन
So, do you look at Rama or talk to Rama or something like that?
Rama uttama purusham asti?
Rama uttama purushah asti.
I made three sentences with Rama Haithar.
Rama Haithar. So, atra, for the Dvitiya Vibhakti, Rama is the object.
Yeah.
That means somebody is talking to Rama or looking at Rama.
Swayamvare Sita Ramam Pashyati.
Uttama. Swayamvare.
सीता
रामं पश्यति उत्तमवाक्यम् अस्तु अग्रे
रामेण सह सीता च लक्ष्मणः वनं गच्छति
रामेण सह सीता लक्ष्मणः च वनं गच्छति
रामाय
किं ददाति रामाय अथवा
रामाय आञ्जनेयः चूडामणि ददाति
चूडामणिं ददाति
चूडामणिं ददाति रामाय आञ्जनेयं चूडामणिं ददाति
रामाय आञ्जनेयः ददाति सो वै आञ्जनेयः सो इफ् सो अत्र ददाति इति क्रियापदम् कः ददाति
चूडामणिं ददाति
कः मीन्स् हु
रामः रामः
आञ्जनेयः खलु आञ्जनेयः ददाति रैट् हू इस् गिविङ्ग् द चूडामणि हूवर्स् डूयिङ्ग् दि एक्शन् विल् गेट् द प्रथमाविभक्तिरूपम् आञ्जनेयः ददाति आञ्जनेयः किं ददाति
चूडामणि
सो देफ चूडामणि विल् बिकम् चूडामणिम्
चूडामणिं
कस्मै ददाति टु हूम् कस्मै ददाति
रामाय
सो इट् विल् बिकम् the chaturthi so that kriya padam is dadati then it become chaturthi so atah anjaneyah ramaya chudamanim dadati uttama agre ramat kim swikaroti ramat kah kim swikaroti who takes what from rama
रामात्
आञ्जनेयः
अङ्गुलिकं स्वीकरोति
रामात् आञ्जनेयः अङ्गुलिकं स्वीकरोति उत्तमम् अस्तु अग्रे
रामस्य भरतः शत्रुघ्नः रामस्य अनुजाः
उत्तमम् अनुजाः सन्ति सन्ति आसन् इति उत्तमं रामस्य अनुजाः भरतः लक्ष्मणः शत्रुघ्नः च उत्तमम् अग्रे रामे सद्गुणाः सन्ति अथवा मम विश्वासः अस्ति
रामे रामे पुरुषोत्तम सन्ति अस्ति
रामे पुरुषो रामे सद्गुणाः सन्ति अथवा रामे अन्य किं मम विश्वासः अस्ति
रामे मम विश्वासः अस्ति
रामे मम विश्वासः
अस्ति
अवगच्छति खलु भगिनि रामः वनं
गच्छति
अस्तु सो अत्र ऐल् जस्ट् रिपीट् युवर् सेण्टेन्स् रामः वनं गच्छति स्वयंवरसमये सीता रामं पश्यति रामेण सह लक्ष्मणः सीता च वनं गच्छति अस्तु रामाय आञ्जनेयः चूडामणिं ददाति रामात् आञ्जनेयः अङ्गुलीयकं स्वीकरोति रामस्य सहोदराः अथवा अनुजाः भरतः लक्ष्मणः शत्रुघ्नः च उत्तमं रामे मम विश्वासः अस्ति अस्तु उत्तमं भगिनि बहु उत्तमम् उषा भगिनी
आं भगिनि ऐ वोण्ट् टु ट्रै सर्वनाम
उत्तमम्
Because everybody is doing the noun. Let's see, maybe us? Or, or what is a stud, is it? Stud Shantaha. Well, this is a tough one. I've not really done any of these, so you'd have to help me. Saha.
सः कः
सः सीतायाः
कीप् इट् सिम्पल् भगिनि सः बालकः
ओके सः बालकः तम् इस् टु हिम् रैट्
सो वेर् एवर् यु यूस् बालकः यु यूस् तम् like balakam if you say balakam pashyami aham
tam pashyami
tam pashyami
aham tam pashyami okay
aham tam pashyami
aham tena saha vidyalayam gachhami
uttam tena saha vidyalayam gachhami aham
tasmai aham tasmai रूप्यकं रूप्यकाणि ददामि
तस्मै रूप्यकाणि ददामि
तस्मै तस्मात् तस्मात् इस् फ्रोम् फ्रोम् हिम् अहम्
अहं तस्मात् किं स्वीकरोति
पत्रं स्वीकरोमि ओके एण्ड् तस्य विल् बि
तस्य नाम किं
तस्य नाम किं तस्मिन्
अथवा तस्य गृहं तस्य पुस्तकं तस्य अम्बा
ओके तस्य तस्य नाम किम् इस् आल्सो फैन्
अस्तु
ओके तस्मिन् इस् इन् इन् दट् पर्सन् तस्मिन् गृहे वेर्
तस्मिन् गृहं कुत्र अस्ति
ओ तस्मिन् गृहं कुत्र अस्ति.
नो नो, बट् इफ् यु यूस् तस्मिन् यु हाव् टु से तस्मिन् गृहे एव. तस्मिन् गृहम् इस् नाट् करेक्ट्. तस्य गृहं कुत्र अस्ति, परन्तु तस्मिन् यु से तस्मिन् गृहे
कः कः सन्ति.
न न, के के सन्ति, के के
सन्ति, के के सन्ति. के इस् अगेन् तृतीय.
No, no. K is like Prathama Bahuvachana.
Oh, right.
Tasmin Grihe KK Santi Iti Aham Na Janami. Astu.
Okay.
Ah, Uttamam Bhagini. Astu. Okay. Uma Krishnan Bhagini?
Aam Bhagini.
Ah.
I'll try Ikaranta Nadi.
Ah.
I just prepared, I'm just looking
for it. Okay.
Atra Nadi Asti. Nadim, Balakaha, Nadim, Pashve Kridan. Kridanti, is that right?
Then it will become Nadyaha Parshve.
Okay, for the Tritiya I can use it, is it? No, for
Shashti. Nadyaha Parshve Balakaha Kridanti.
Okay. For the Dvitiya then?
Dvitiya, because it is a... a place, you can say Nadim Prati Gacchami, Nadim Pashyami.
Aham Mitrena Saha Nadim Pashyami.
Pashyami, Uttama. Nadim Pashyami. Avagatam ba, why we say Nadim?
Yeah, because
it becomes the object of the word Pashyami. Kim Pashyati? Nadim Pashyami. So Nadim. Astu. Nadya?
Nadya Meenaha.
Nadyam Meenaha Santi. Nadyam.
Oh, okay, that is Saptami.
Saptami.
Nadyam, so I'm telling the Saptami first. Nadyam, Atva, Binna Jantu, Santi.
Binna Jantu, Santi. Atva, Bahu Vachana, Binna Jantavaha, Santi.
Binna
Jantavaha, Santi. Asta, Uttama.
And then, so the Tritiya will, this is a Tritiya, no?
So, Atra, you can use a sentence, the boat comes by the river. Nauka?
No. Nauka, Nauka comes. I see a boat in the river.
Then it will become Saptami again.
Oh, okay.
Nadyam Naukam Pashyami. Like that. Nadyam.
Nauka Nadya Asti.
Nadya Agachati. Nadya Gachati. Nadya Charati. It goes or comes by the river. Nadya Agachati. Nadya Chalati. Nadya Charati. Nadya.
What does that denote, Bhagini?
What are you giving or what are you doing for the Nadi? Or you can use the Namaha. Like Ganga Nadyai Namaha, like that.
Saras, Ganga Nadi. So we can we say everyone Sarveshani Nadi Namas, they are doing pranams. So is that right?
So but when we use that use the chaturthi, you can use it only like namaha. That's it. Like nadyai namaha iti sarve vadantu.
Nadyai namaha iti sarve vadantu.
Okay. Atava nadyai samrakshanam karaneyam. So we have to to protect the river. Samrakshanam avashyakam iti. Actually, it is nadyaha samrakshanam avashyakam, but we can say nadyai.
Samrakshakam avashyakam. Both are correct.
That is for Shashti. Nadyaha samrakshanam. That is for Shashti.
Okay.
Nadyaha samrakshanam avashyakam.
Panchami.
Ganga nadyai namaha iti samyakasti. Panchami. Nadyaha.
Nadyaha. Nadyaha. Can we say Nadyaha? Is there is a garden beside the river? Can
then it becomes it? Shashti again? Eh? Nadyaha Parshve Udyanam Asti.
Mm-hmm.
Nadyaha Parshve. So atra Panchami is you are taking something from the river.
Aham nadyaha jalam pibami.
Nadyaha jalam pibami. Uttama. Nadyaha jalam pibami. Astha.
Dhanyavada bhagini. I am just for beginning to understand this.
Uttama bhagini. This is how it is. Okay. Nadi asti. Atra nadi asti. Nadim pashyami. Atava nadim prati gachami. Nadya nauka gachati. Nadyai namaha iti sarve vadantu. Nadyaha jalam pibami. Nadyaha parshve balakaha kridanti udyanam asti. Nadyam meenaha anya jantavaha santi. Santi. Dhanyavada. Dhanyavada bhagini. Sandhya bhagini.
I'll try now. Shall I try with Bhavan?
Astu. Bhavan, uttama. Nutana padam kalu. Asti vatra.
Prathama. Bhavan kutra vasati.
Bhavan kutra vasati. Agre?
Is it Bhagini? Bhavan kutra vasati?
Samyak. Bhavan kutra vasati. Can everybody else go on mute?
Krishna bhavantam pustakam.
Ekanimsha Bhagini, aham sarvan mute karam. Ekanimsha. Sandhya Bhagini, unmute karot. Vadatu. Bhavan kutra vasati? Krishna
bhavantam pustakam dadati.
So for dadati, we always use chaturthi.
Chaturthi.
Krishna bhavantam. vadati, pashyati.
Krishna bhavantam pashyati.
Pashyati. So if it is a person, vadati, pashyati is good. If it's a thing,
okay.
Swikaroti, tadati, icchati, like that.
Okay. So the dati automatically would be chaturthi, right? Okay. Then tritiya, bhavata saha mitra api gacchati va.
Mitram api gacchati. Mitram is, mitram. What they say, nitya napumsakalingam.
Nitya
napumsakalingam. Bhavata saha mitram api gacchati va.
Gacchati va. Then chaturthi, bhavate aham phalani dadami.
Bhavate aham phalani dadami. Phalani
dadami. Then panchami, Sita bhavatah dhanam swikaroti.
Uttama.
Shashti, bhavatah agrajasya namakim. Saptami, bhavati navavastram samyak asti. Is that okay? The new clothes look good on you. Or is it too far-fetched, Bhagini?
For the bhavati, we usually, like, for a person, we say, like, in, not really on.
On. I see. Okay. Then I can say, bhavati samyak gunaha santi.
Uttama gunaha santi. Uttama gunaha santi. Astu. Anya kopi nasti kalo? Astu. Agre gachamaha. अभ्यासदर्शिनि प्रति सो अत्र उपसर्गः विषये वयं पठितवन्तः उपसर्गः धातोः पूर्वं भवति सो अत्र सारांशरूपेण अत्र अस्ति खलु एकवारं पश्यामः अत्र धातु न उपसर्ग न उपसर्ग अभवत् इदानीं वयं त्वान्तम् अथवा ल्यबन्तं पठामः खलु पेज् 103 इति अहं चिन्तयामि अस्तु अत्र उपसर्गः नास्ति चेत् त्वान्तरूपं भवति गच्छति गत्वा पठति पठित्वा त्वा 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 इति उपसर्गसहितधातु अस्ति चेत् य भवति य गत्वा परन्तु आ अस्ति चेत् आगत्य इति भवति सर्वे स्मरन्ति वा अस्तु आरम्भं कुर्मः केतकि भगिनि
आं भगिनि
वदतु अधः उपसर्गः त्वान्तं रूपं च निर्दिष्टम् अस्ति युक्तं ल्यबन्तरूपं रिक्तस्थाने लिखत अस्तु परि योगशीलयित्वा कथं भवति परिशील्य उत्तम य इति
परिशील्य
परिशील्य अत्र आ योग नीत्वा
आयोग नीत्वा आनीय
आनीय अस्तु श्रीनिवास उत्तमं श्रीनिवास महोदय
आं भगिनि प्रयोगः दर्शयित्वा प्रदर्शयित्वा प्रदर्शयित्य
प्रदर्श्य प्रदर्श्य इति भवति प्रदर्श्य अस्तु अग्रे
योगः स्थित्वा उत्तिष्य
अत्र उत्ताय इति भवति उत्ताय
which it will be second term
उत्ताय उत्ताय
second term both are there
so it will become the same way
where are you doing bhagini uttaya utt plus sthitva
so it will become uttaya
I put prasthaya why did I put prasthaya utt plus
utt plus sthitva uttaya
I have mine as pra plus sthitva so I put prasthaya
ओके प्रस्ताय अस्तु
ओके
अस्तु सन्ध्या भगिनि
आं भगिनि प्रयोग क्षालयित्वा
प्रक्षाल्य अस्तु वि
क्रीत्वा विक्रिय
Will or la?
So prakshalya atra it is ya prakshalya what is your question mahodaya
no it's prakshalaya that's what I was reading here.
No
prakshalya whether the la will be a full thing or a half thing how do you find out
well so atra the roopam is prakshalya eva prakshalaya iti asti che you are telling somebody to wash prakshalaya but it is always prakshalya eva mahode prakshalaya iti na bhavati prakshalya
I was just trying to find out some rules if the previous thing if you look at it utta the ta becomes ta over that becomes dirgha here it is becoming the only the ardha thing
so only by practice you know by listening and hearing you will know prakshalya is correct prakshalaya is not correct like that
prakshalaya is more of an order okay okay thank you
prakshalaya to prakshalaya like that astu agre कावति सविता भगिनि
वियोग कृत्वा विक्रिय
विक्रिय विक्रिय
विक्रिय ओके
विक्रिय
अस्तु
भगिनि सविता भगिनि उपहसित्वा
भगिनि उपयोग हसित्वा उपहस्य
उपहस्य अस्तु अग्रे
अनुयोगे उक्त्वा अनुयोगे उक्त्वा
Anudya. I think we finished all this, Kalo. We finished
all this. Yeah, we did this.
Anudya. So it is Anudya. Okay, the Uktva will become Anudya.
Yeah, Anudya.
Okay, same thing. The difference will be like Arudya. It will become a Hakara. Aruhya.
But is anu plus uktva would it become a long u anuktva anuya
anudya anudya
dirgha u right
anudya okay so I will go to the next one
Parish.
Okay we finished all that पूरितवन्तः वयम् अग्रे गच्छामः सुधीरस्य दिनचरी अधः निर्दिष्टा अस्ति बिकास् इट् दिनचरी ईकारान्त स्त्रीलिङ्गपदम् इट् इस् अनु निर्दिष्टा अधः निर्दिष्टा अस्ति सो वेन् वि हेव् निर्दिष्टा लैक् दट् देन् इट् विल् बिकम् the karmani prayoga tadadharena lyabanta rupani upayujya shringala rupena vakyani rachayata shringala rupena अस्तु. सुधीरः अत्र उदाहरणमस्ति. सुधीरः प्रातः उत्थाय मुखं प्रक्षालितवान्. उत्थाय, सो अत्र प्रातः उत्थितवान् मुखं प्रक्षालितवान्. प्रातः उत्थाय मुखं प्रक्षालितवान्. सो उत्थाय मुखं प्रक्षालितवान्. अस्तु, अग्रे किं किम् अस्ति उषा भगिनि? सुधीरः
सुधीरः देवं नमस्कृत्य
न प्रक्षाल्य.
ओके, रैट्. प्रातः उत्थाय मुखं प्रक्षाल्य देवं नमस्कृत्य
नमस्कृतवान् एकमेकं वाक्यं वदतु. प्रथमं सुधीरः प्रातः उत्थाय मुखं प्रक्षालितवान्. सुधीरः मुखं प्रक्षाल्य देवं नमस्कृतवान्. अग्रिमं करोतु.
सुधीरः प्रातः उत्थाय
मास्तु भगिनि, इदानीम् अभवत्. ओके, फस्ट् हि सेड् सुधीरः प्रातः उत्थाय मुखं प्रक्षालितवान्. ओके, प्रातः उत्थाय मुखं प्रक्षालितवान्. सो डोण्ट् डू दिस् न. मुखं प्रक्षाल्य देवं नमस्कृतवान्. सो मुखं प्रक्षाल्य अभवत्. इदानीं देवं
प्रक्षाल्य देवं नमस्कृतवान्,
रैट्?
नमस्कृत्य कण्ठस्थीकृतवान्.
कण्ठस्थीकृतवान्. अस्तु, अग्रे उमाकृष्णन् भगिनि. सुधीरः
पाठान् कण्ठस्थीकृत्य वस्तूनि आनीतवान्.
उत्तमं, वस्तूनि आनीतवान्. उत्तमम्. अस्तु, अनन्तरं वस्तूनि
आनीय गृहम् अलङ्कृतवान्.
गृहम् अलङ्कृतवान्. अस्तु, अग्रे केतकी भगिनि.
आं भगिनि.
सुधीरः
गृहम् अलङ्कृत्य
अनूदितवान् इत्युक्ते उक्तवान्, पुनः उक्तवान्, अनूदितवान्. अस्तु,
अनूदितवान् इस् लभन्ते प्रयोग
न. अनूदितवान् इस् दट् तावत् प्रत्ययः खलु. अनूदितवान्, अनूदितवन्तः, अनूदितवती, अनूदितवत्यः, लबन्, ऐ मीन् दिस् इस् द तावत् प्रत्यय.
अस्तु भगिनि, धन्यवादः.
अस्तु, अन्येकमपि करोतु.
अस्तु, सुधीरः अनूद्यवान्
अनूद्य
जलम् उद्धृतवान्
उद्धृतवान्
जलम् उद्धृतवान्.
अस्तु, अस्तु, सम्यक्. अग्रे श्रीनिवास महोदय.
धन्यवादः.
धन्यवादः भगिनि.
सुधीरः जलम् आद्रूढत्य वृक्षम् आरूढवान्
आरूढवान्. अस्तु, उद्धृत्य, सम्यक्, उद्धृत्य. इन्स्ट् आफ् आ इट् शुड् बि
उद्धृत्य
आरूढवान्. अस्तु, आरूढवान् आरूढवान् मीन्स् हि क्लैम्ड् अप्, आरोहणं कृतवान्. आरोहणम् अवरोहणम् इति अस्ति वृक्षम् आरोहणम् अस्तु सुधीरः
उद्धृतवान् मीन्
उद्धृतवान् मीन्स् हि स्प्रिङ्क्ल्ड् वाटर् अस्तु वृक्षं
वृक्षम् आरूढय
आरुह्य सो द डा विल् बिकम् अ ह आरुह्य वृक्षम् आरुह्य
आरुह्य फलानि अवचितवान्
अवचितवान् अस्तु उत्तमं
प्लक्किङ्ग्
महोदय वदतु
अवचितवान् मीन्स् प्लक्किङ्ग्
प्लक्किङ्ग् करेक्ट् अवचितवान् सम्यक् अस्तु सन्ध्या भगिनी
भगिनी सुधीरः फलानि अवचित्य कार्यार्थं निर्गतवान्
निर्गतवान् अस्तु अग्रे
सुधीरः कार्यार्थं निर्गत्य कार्यालयं प्राप्तवान्
कार्यालयं प्राप्तवान् अस्तु समापितवन्तः वयं सो अत्र ल्यबन्तपदं किञ्चित् किञ्चित् भ्रमः अस्ति किञ्चित् क्लिष्टकरम् अस्ति परन्तु अभ्यासेन वयं सर्वं ज्ञातुं शक्नुमः अभ्यासमेव अस्तु पुनः पुनः आगच्छति एषः विषयः पुनः पुनः पुस्तके आगच्छति सो अतः चिन्ता मास्तु अस्तु अद्यतनविषयः अस्ति अपेक्षया इति अपेक्षया कुत्र उपयोगं कुर्मः इत्युक्ते यत्र वयं तोलनं कुर्मः उदाहरणं सीता उन्नता अस्ति रमा वामना अस्ति सीतायाः अपेक्षया रमा वामना अस्ति रमायाः अपेक्षया सीता उन्नता अस्ति इति यत्र तोलनं कुर्मः तत्र अपेक्षया इति पदम् उपयोगं कुर्मः वयम् अपेक्षया इति अव्ययम् अतः परिवर्तनं न भवति पुल्लिङ्गे अपि अपेक्षया रामस्य अपेक्षया लक्ष्मणः कनिष्ठपुत्रः लक्ष्मणस्य अपेक्षया रामः ज्येष्ठपुत्रः दशरथस्य ज्येष्ठपुत्रः अपेक्षया एवमेव नपुंसकलिङ्गे अपि रामायणस्य अपेक्षया महाभारतं बृहत् काव्यं महाभारतस्य अपेक्षया रघुवंशं लघुकाव्यम् इति अपेक्षया सर्वत्र उपयोगं कर्तुं शक्नुमः वयम् अत्र वयं निश्चयेन षष्टिविभक्तिरूपमेव उपयोगं करणीयम् अस्माभिः षष्टिविभक्तिरूपमेव उपयोगं करणीयम् अस्तु सविता भगिनी पठति वा
आं भगिनि नागराजः ह्यः अपेक्षया अद्य शैत्यम् अधिकं ननु
उत्तमम् अग्रिमः
चन्द्रकान्तः आम् गतवर्षेपेक्षया एतस्मिन् वर्षे एव शैत्यम् अधिकम्
अधिकम् अस्तु सो अत्र ह्यः अद्य इति अपि अव्ययं सो अतः षष्टिरूपं न आगच्छति षष्टिरूपं न भवति ह्यः अपेक्षया अद्य शैत्यम् अधिकं ननु शैत्यम् इति अस्ति अतः अधिकम् इति अस्ति शैत्यम् अधिकं ननु इत्युक्ते खलु अथवा किल आम् गतवर्ष अपेक्षया सो अत्र समासपदं गतवर्ष अपेक्षया अत्र वयं भिन्नभिन्नपदे लिखामः चेत् कथं भवति वर्ष इति गतवर्षयोग अपेक्षया इति वर्षस्य सो अत्र वर्षम् इति क्षम्यता वर्षम् इति नपुंसकलिङ्गपदं सो अतः वर्षस्य अपेक्षया गतवर्षस्य अपेक्षया एतस्मिन् वर्षे. सो अत्र एतस्मिन् सप्तमी विभक्ति, किमर्थम् एतस्मिन् सप्तमी विभक्ति अस्ति अत्र? वर्षे इति सप्तमी, अतः सर्वनामपदमपि एतस्मिन् इति अस्ति. अस्तु, अन्य बिन्दु अस्ति गत, गत आगामि इति अस्ति चेत् एकमेव पदं भवति, गत अनन्तरं विरामः इति न भवति. गत अनन्तरं विरामः अनन्तरम् अन्यपदम् इति न भवति. अत्र विरामः न भवति, एकमेव पदं भवति. गतवर्षापेक्षया एतस्मिन् वर्षे एव शैत्यम् अधिकम्. अस्तु, उषा भगिनी, वाक्यद्वयम्. वदतु. वर्षस्य अपेक्षया.
But we are not doing, like, we are not breaking it. I thought maybe there is a sandhi here. Gata varsha plus apeksha will become.
No, atra sandhi asti, gata varsha apeksha. A is asti kalo, varsha.
Yeah. Varsha. So this is a sandhi here, right?
Yeah, there is a sandhi. So atra, when we combine words together, yatra vayam yoja yitva ekameva padam likamaha, tatra moola roopameva swikurmaha vayam. मूलरूपम् अस्ति वर्ष इति. वर्ष अदीर्घं भवति, वर्षापेक्षया इति.
ओके, सो यु वर सेइंग गतवर्षस्य एक्सप्लेनिंग इट.
सो अत्र अत्र भगिनी, सो अत्र गत एकमेव पदे वयं लिखामः चेत् गतवर्षापेक्षया, परन्तु पदद्वयं आवश्यकं चेत् गतवर्षस्य अपेक्षया इति लिखामः इति अहं विवृतवती. अस्तु, अवगतं वा? अस्तु, उषा भगिनी पठतु.
गतवर्षापेक्षया अस्मिन् वर्षे वृष्टिः अपि अधिका आसीत्.
अधिका, किमर्थम् अधिका अत्र अस्ति? अधिका
वृष्टिः,
वृष्टिः स्त्रीलिङ्ग, वृष्टिः अधिका. अस्तु, अग्रे.
अस्मिन् वर्षे सप्तमी विभक्ति.
उत्तमम्, अस्मिन् वर्षे.
गतवर्षापेक्षया समासपदम्.
समासपदम्, अस्तु.
आसीत् इस् लिङ्ग लङ्लकार.
लङ्लकार, अस्तु. अग्रे.
You want me to read more?
आम् भगिनि.
चन्द्रकान्तः, पूर्वापेक्षया इदानीं परिसरमालिन्यम् अधिकं. परिसरमालिन्यम् अधिकम्. अतः एतत् सर्वं सम्भवति.
एतत् सर्वं भवति,
सम्भवति,
सम्भवति,
सम्भवति. पूर्वापेक्षया अगेन् समासपदम्.
आम् आम्.
इदानीमपि सप्तमी विभक्ति.
न, इदानीम् इस् अव्ययम्. इदानीम्.
ओ, इदानीम् इस् अव्ययम्. ओके,
अव्ययम्.
ओके, देन् परिसरमालिन्यम् इति.
परिसर इत्युक्ते एन्वायर्मेण्ट्. मालिन्यम् इत्युक्ते पोल्यूषन्, डर्टिनेस् लैक् दट्. मलिनम् अस्ति इत्युक्ते इट् इस् डर्टि. मालिन्यं, द डर्टिनेस् इति. परिसरमालिन्यम् अधिकं पूर्व अपेक्षया इत्युक्ते पूर्वं,
देन् बिफोर्,
कम्पेर् टु बिफोर्. कम्पेर् अत्र अपेक्षया मीन्स् कम्पेर् टु इति.
Yeah.
पूर्वापेक्षया इदानीं परिसरमालिन्यम् मालिन्यम् अधिकम्, अतः एतत् सर्वं सम्भवति. आल् दिस् हेपन्स्, आल् दिस् इस् हेपनिङ्ग् इति. अस्तु, अग्रे विशेषः अस्ति अपेक्षया. यदा द्वयोः तोलनं, तोलनम् इत्युक्ते कम्पेरिसन्, तोलनं कृत्वा आधिक्यं न्यूनता वा उच्यते. कम्पेर् कृत्वा आधिक्यम् इत्युक्ते अधिकं, न्यूनता न्यूनता न्यूनं वा उच्यते. इट् इस् सेड् तदा अपेक्षया एतस्य उपयोगः क्रियते. बकासुरस्य अपेक्षया भीमः बलवान्, भीमस्य अपेक्षया बकासुरः बलवान् न, बलवान् न,
न्यूनं बलवान्.
So he's saying that
बलं न्यूनम् अस्ति, बलं न्यूनम् अस्ति. बकासुरस्य अपेक्षया भीमः बलवान्, भीमस्य अपेक्षया बकासुरः बलवान् न, अथवा भीमस्य अपेक्षया बकासुरस्य बलं न्यूनम् न्यूनम् इति अस्ति. सो अत्र चित्रमस्ति, चित्रं दृष्ट्वा अभ्यासं कुर्मः वयम्. अस्तु, सो अत्र एकवारं पश्यामः. मोहनः अस्ति एक वामभागे अस्ति, अर्जुनः दक्षिणबाहे अस्ति. सो अत्र अत्र वामभागे मोहनः अस्ति खलु, वामभागे मोहनस्य सम्बन्धीनि वस्तूनि सन्ति, मोहनस्य सम्बन्धीनि विवरणानि सन्ति. दक्षिणभागे अर्जुनस्य सम्बन्धीनि विवरणानि सन्ति. उदाहरणार्थं मोहनस्य उद्योगः लिपिकारः, अर्जुनस्य उद्योगः अधिकारी इति. वेतनं, वेतनं मोहनस्य वेतनं 1500, अर्जुनस्य वेतनं 2000 रूप्यकाणि इति. मोहनस्य भारः द्विचत्वारिंशत् किलो अस्ति, किलो परिमितम् अस्ति. अर्जुनस्य भारः 58
अधिकः अस्ति,
58 किलो अस्ति, अधिकः अस्ति, भारः अधिकः अस्ति, 58 किलो अस्ति. परीक्षायां मोहनः प्रथमस्थानं प्राप्तवान्, अर्जुनः परीक्षायां प्रथमश्रेणीं प्राप्तवान्.
What is the difference, Bhagini?
उत्तम उत्तम प्रश्नः. प्रथमश्रेणी इस् द फस्ट् लेवल् 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 खलु. प्रथमश्रेणी इत्युक्ते किं भगिनि?
फस्ट् डिविशन्.
फस्ट् श्रेणी इत्युक्ते लेवल् खलु, लेवल् लेवल् फस्ट् डिविशन्. परन्तु इद् परन्तु मोहनः प्रथमस्थानं, फस्ट् प्लेस्, टाप् आफ् द क्लास्.
प्रथमश्रेणी मोहन इस् आन् अ फस्ट् क्लास्, रैट्?
फस्ट् क्लास्.
अस्तु.
आसक्तिः इत्युक्ते इण्ट्रेस्ट्, मोहनस्य आसक्तिः परिसरविषये अस्ति, अर्जुनस्य आसक्तिः क्रीडायाम् अस्ति, परिसरे अस्ति, क्रीडायाम् अस्ति, अथवा क्रीडाविषये अस्ति. परिसर इत्युक्ते एन्वायर्मेण्ट्, एन्वायर्मेण्ट् एन्वायर्मेण्ट्. मोहनस्य प्रियखाद्यं, हिस् फेवरेट् फुड्,
Shushkili.
Shushkili itike, I think kinchit lavanam kadyam iti. Madhuram na. Arjunasya priyakadyam laddukam. Laddukaha. Priyakadyam laddukam. Mohanasya vayaha. Chatvarimshat varshani. Arjunasya vayaha. अष्टत्रिंशत् वर्षाणि अष्टात्रिंशत् वर्षाणि अस्तु मोहनस्य धनं वित्तकोषे द्वादशसहस्रम् अस्ति द्वादशसहस्रं रूप्यकाणि सन्ति रूप्यकाणि इति वदामः चेत् सन्ति अस्तु अर्जुनस्य सन्ति अस्तु इदानीम् ऐ डोण्ट् नो हौ ऐ केन् शो बोत् अस्तु पूर्वतनपुटे चित्रद्वयं यत् दत्तम् अस्ति तत् पार्श्वे तत् सम्बन्धीनि विवरणानि अपि सूचितानि सन्ति तत् आधारेण अधः निर्दिष्टानां प्रश्नानाम् उत्तराणि अपेक्षया इति पदेन युक्तेन वाक्येन लिखत अवगच्छन्ति वा अस्तु पूर्वतनपुटे विवरणानि सन्ति तत् आधारेण अपेक्षया इति पदम् उपयुज्य तोलनं कृत्वा लिखतु एतयोः कः स्थूलः मोहनस्य अपेक्षया अर्जुनः स्थूलः कथं जानीमः स्थूलः भारविषये वयं पश्यामः अर्जुनः स्थूलः अर्जुनस्य भारः
अधिकम् अस्ति
अधिकम् अस्ति स्थूलः मीन्स् फ़ेट्नेस् स्थूलः फ़ेट्
ओके तमिल् व्हेन् वी से स्थूलम् मीन्स् स्किन्
एकनिमिषं नौ कृशः मीन्स् thin okay ekanimisham pashyami now I'm having a doubt ekanimisham stulah means fat only but I want to show for mahoday
huge
stulah means stout athava fat eva astu So, whenever you have a doubt, you have to look it up. Astu. Yes. Astu. Okay, so, I'm going to read the question, Anantaram Atra Pashyamaha. Eta Yoho, Astu, Kaha Idanim Patati, Uma Krishnan Bhagini, Vakya Dvayam. Eta Yoho, Kaha Unnataha.
Unnataha is short, no?
Tall and short,
Unnataha is tall.
Unnataha
is tall.
Okay, Unnataha means tall. Uma Krishnan, Bhagini, Eva Vadatu, Anya Kopi Ma Vadatu. Dhanyavada.
Mohanasya Apekshaya Arjuna Unnataha.
Oh, Uttama. The other way Katam Bhavati, विपरीतदिशि कः वामनः
अर्जुनस्य अपेक्षया मोहन
वामतः मीन्स् इट् बिकम्स् लेफ्ट् वामनः अस्तु अग्रिमम् एतयोः कः कृशः
Krishaha is lean अर्जुनस्य अपेक्षया मोहनः कृशः
कृशः अस्तु अग्रे केतकि भगिनी अग्रिम एतयोः कस्य वेतनम् अधिकम्
अर्जुनस्य वेतनं मोहन अपेक्षया अधिकम्
सो अत्र षष्ठी विभक्ति कुत्र अस्ति
अर्जुनस्य मोहनस्य
मोहनस्य अपेक्षया वदतु मोहनस्य अपेक्षया
अर्जुनस्य वेतन अधिकम् अस्ति
वेतनम् अधिकम् अस्ति
अस्ति
उत्तमं वेतनम् अधिकम् अस्ति अस्तु भगिनी अन्य दिशि सो वेतनं न्यूनम् इफ् ऐ से वेतनं न्यूनं कथं भवति वाक्यं कथं भवति वेतनं न्यूनम् एतयोः कस्य वेतनं न्यूनम्
अर्जुनस्य अपेक्षया मोहनस्य वेतनं न्यूनम् अस्ति
उत्तमं न्यूनम् अस्ति अस्तु कति सन्ति इति पश्यामि न्यूनं मीन्स् लेस् लेस् अधिकं मीन्स् मोर् अधिकं मीन्स् मोर् अस्तु श्रीनिवास महोदय क्षम्यतां महोदय केतकि भगिनी अन्येकं
एतयोः कः ज्येष्ठः मोहन अर्जुनस्य अपेक्षया मोहनः ज्येष्ठः अस्ति
अर्जुनस्य अपेक्षया मोहनः ज्येष्ठः अस्ति एतयोः कः कनिष्ठः अस्ति
मोहनस्य अपेक्षया अर्जुनः कनिष्कः अस्ति
कनिष्ठः अस्ति
कनिष्ठः अस्ति
कनिष्ठः मीन्स् लेस् यङ्गर्
यङ्गर् यङ्गर्
बट् हौ डु वि इस् द एज् गिवन् हियर्
वयः अस्ति खलु वयः
ओके ओके
अस्तु श्रीनिवास महोदय
वाट् वास् वेतनं मीन्
सेलरि
एतयोः कस्य
भारः अधिकः भारः अधिकः
मोहनस्य अपेक्षया अर्जुनस्य भारः अधिकः
अस्तु दि अदर् वे कस्य भारः न्यूनः
अर्जुनस्य अपेक्षया मोहनस्य भारः न्यूनः
उत्तमं भारः न्यूनः अपेक्षया
मोहनस्य मोहनः
दश द क्वश्चन् खलु सो वि सेड् हूस् वेट् सो इट् इस् मोहनस्य भारः उत्तमम् उत्तमम् अर्जुनस्य अपेक्षया मोहनस्य भारः न्यूनः
सत्यं
बिकास् इट् वास् कः ज्येष्ठ सो द क्वश्चन् वास् कः
ओके
सो इट् इस् मोहनः अथवा अर्जुनः ज्येष्ठः मोहनः कनिष्ठः लैक् दट् उत्तमम् गुड् आब्सर्वेशन् बोत् श्रीनिवास महोदय अस् वेल् अस् उषाभगिनी अस्तु अग्रे महोदय एतयोः
कस्य परिसरप्रीति अधिका
परिसर मीन्स् एन्वायर्मेण्ट् हू लैक्स् एन्वायर्मेण्ट् मोर्
अर्जुनस्य अपेक्षया मोहनस्य परिसरप्रीति अधिका
प्रीतिः अधिका
अप्रीतिः अधिका
परिसर ओके अधिकः आसक्तिः ऐ सी बेस्ड् आन् आसक्ति ओके
अस्तु सो अन्यप्रश्नं पृच्छामि, एतयोः कस्य क्रीडाप्रीतिः अधिका?
मोहनस्य अपेक्षया अर्जुनस्य क्रीडाप्रीति अधिका.
प्रीतिः अधिका,
प्रीतिः, प्रीतिः अधिका.
अस्तु, उत्तमं. सन्ध्या भगिनि,
भगिनि
प्रीतिः इस् प्रथमा विभक्ति, प्रीतिः, आसक्तिः. अस्तु सन्ध्या भगिनि, सो इट्स् वेरि इण्ट्रेस्टिङ्ग्, डिफ्रेण्ट् डिफ्रेण्ट् विभक्ति अस्ति अत्र, कः अथवा कस्य, अत्र कस्मिन् भवति. सन्ध्या भगिनि, एतयोः,
एतयोः कस्मिन् मधुरप्रीतिः अधिका?
कस्मिन् मधुरप्रीतिः अधिका. सो फार् दट् सप्तमी विभक्ति वी केन् यूस् दीस् टैप्स् आफ् सेण्टेन्सेस्.
ओके,
लैक् सीतायां, रामे, लैक् दट्. अस्तु, एतयोः कस्मिन् मधुरप्रीतिः अधिका?
अधिका मोहनस्य अपेक्षया अर्जुनस्य मधुरप्रीतिः अधिका.
अस्तु, सो इफ् ऐ आस्क् कस्मिन् लवणप्रीतिः अधिका अथवा मधुरप्रीतिः न्यूना?
न्यूना. अर्जुनस्य अपेक्षया मोहनस्य मधुरप्रीतिः न्यूना अथवा लवणप्रीतिः अधिका.
सो अत्र एकमेव भगिनी, सो अत्र कस्मिन् इति अस्ति खलु?
आं भगिनि.
सो इट् शुड् बि मोहने,
मोहने. ओके ओके,
पुनः
मोहनस्य, सो दि आन्सर् आक्चुलि शुड् बि मोहनस्य अपेक्षया अर्जुने मधुरप्रीतिः अधिका.
अर्जुने मधुरप्रीतिः अधिका. सि अत्र वि केन् यूस् षष्टि एस् वेल् एस् सप्तमी.
सप्तमी,
बहु उत्तमं खलु? उत्तमं, बहु उत्तमम्.
ओल्सो भगिनी, इस् देर् अ वर्ड् लैक् अधिकः? बिकास् हियर् द यूसेज् इस् अधिका.
सो वि हव् भारः अधिकः खलु, भारः अधिकः.
सो हौ डिड् दिस् बिकम् अधिका, आल्दो इट् इस् मधुरप्रीतिः विच् सीम्स् टु बि मास्कुलिन्?
प्रीतिः इस् फेमिनिन्, स्त्रीलिङ्ग, प्रीतिः.
ओके ओके,
लक्ष्मीः, देर् आर् सम् एक्सेप्शन्स्, प्रीतिः, कृतिः, संस्कृतिः, लक्ष्मीः इति.
अस्तु भगिनि, धन्यवादः.
धन्यवादः.
नेक्स्ट् वन् आल्सो भगिनि.
आम्,
एतयोः कः बुद्धिमान्? बुद्धिमान् I would think Arjunasya apekshaya Mohanah buddhiman.
Mohanah buddhiman.
Yes. Because Arjuna has got a Prathama Shreni, which is great, whereas Mohanah has got the Prathama Sthana, which is rank.
Right. Satyam, satyam. Astu, agre Savita Bhagini.
Aam Bhagini. भगिनी, केन् ऐ सी द क्वेश्चन्?
अस्तु, एतयोः कस्य उद्योगः उच्चः? एतयोः कस्य उद्योगः उच्चः?
एतयोः उद्योगः लिपिकारः इस्
a typist. No, no, no. Lipikarah is the person who writes, like
writer,
scribe,
writer.
No, like a scribe. Lekaka? No, lekakah is a writer, parantu lipikarah, what he does is he just copies
or translate,
not even translate, he just
scribe, writer. A writer, right?
Okay.
He writes whatever is there. No, in the olden days, we did not have the copying machine. Kalo, so they rewrite it. So that is called the scribe iti vadamaha. Angila bhashayam scribe iti vadamaha. पूर्वस्मिन् काले एतानि यन्त्राणि न सन्ति खलु, अतः पुनः पुनः लिखन्ति, अतः लिपिकारः लिपि. अस्तु, एतयोः कस्य उद्योगः उच्चः?
मोहनस्य अपेक्षया अर्जुनस्य उद्योगः
उच्चः.
उच्चः.
एतयोः कस्य उद्योगः नीचः?
अर्जुनस्य अपेक्षया मोहनस्य उद्योगः नीचः.
नीचः. अस्तु, सम्यक्. अस्तु,
so nichah actually means low. Bad. It can also mean bad, right? But it's here,
yeah, it's low.
Here
it generally means low. It generally okay. means low.
Okay.
Astu ekam eva asti, atah usha bhagini karotu. Usha bhagini,
esa yoho kah adhikam vyayam karoti?
Vyayam means spending. Vyayam karoti.
Okay. So who does more spending? Maybe by looking at his bank balance?
Aam.
Okay. Arjunasya apekshaya Mohanah adhikam vyayam karoti.
Samyak. Adhikam vyayam karoti. एतयोः कः न्यूनं व्ययं करोति?
मोहनस्य अपेक्षया अर्जुनः न्यूनं व्ययं करोति.
सो अत्र अर्जुनः, मोहनस्य अपेक्षया अर्जुनः न्यूनं व्ययं करोति. इट्स् नाट् अर्जुनस्य एनिमोर्. सो बेस्ड् आन् द क्वश्चन् वि रैट् इट् लैक् दट्. अस्तु, अग्रे अस्ति तुमुन् प्रत्यय. यदा वयं वदामः खलु, तत्र गत्वा अहं खादामि, किमर्थं तत्र गच्छति? अहं खादितुं गच्छामि. सो अत्र किमर्थम् इति प्रश्नः अस्ति चेत् तुमुनपि उपयोगं कर्तुं शक्नुमः वयम्. अहं ग्रन्थालयं गत्वा पुस्तकं पठामि. अहं किमर्थं ग्रन्थालयं गच्छति? अहं पुस्तकं पठितुं ग्रन्थालयं गच्छामि, अथवा पठनार्थं ग्रन्थालयं गच्छामि, अथवा पठनाय अपि सम्यक् भवति. किमर्थम् इति प्रश्नस्य तुमुन् भवति, आय चतुर्थीविभक्तिरूपं भवति, अर्थम् इति अन्तिमे आगच्छति, तदपि भवति. अस्तु, उमाकृष्णन् भगिनि वाक्यद्वयं पठतु कृपया.
पुत्रः तात् एते पुस्तकप्रदर्शनानि किमर्थम् आयोजितवन्तः? पिता पुस्तकानां प्रचारं कर्तुं पुस्तकप्रकाशकाः पुस्तकानि विक्रेतुं प्रदर्शयितुं च आगच्छन्ति.
अत्र आगच्छन्ति. अस्तु, तात् इति रूपं किं? तात् इत्युक्ते किं? तात् जनकः इति पदस्य जनक इति अस्ति खलु, तथा एव तात् इति अस्ति चेत् सम्बोधन लैक् जनक इति अस्ति, लैक् फादर्, हे डाड्. तात् एते पुस्तकप्रदर्शिनीं किमर्थम् एते किमर्थम् आयोजितवन्तः? एते मीन्स् दीस् पीपल्. एते पुस्तकप्रदर्शिनीं पुस्तक
एक्सिबिशन्
एक्सिबिशन्
किं वाट्
एताम् एतां पुस्तकप्रदर्शिनीम्
एताम् सो अत्र भेदः कः? एतां पुस्तकप्रदर्शिनीं, दे आर् टाकिङ्ग् अबौट् द प्रदर्शिनी.
of the books.
Of the books. Etam prastaka pradarshinim. Pradarshini asti. Pradarshini dvitiya vibhakti. So if it is just pradarshini, it will be esha pradarshini. Esha pustaka pradarshini. Pradarshinim iti asti chet, esha will change to etam.
Oh, it's near, huh?
Near. Atra pashyatu. Esha. Esha pustaka pradarshini. Etam. Ditiya vibhakti roopa.
What is the lingam here on top?
Sri lingam kalu.
Okay.
Sri lingam. Ikaranta padam. Pradarshini. Ikaranta padam.
Okay.
So, etam pradarshini kimartam. What do you have? Ayojita vantahava.
But what is ete? Is that also plural?
Bhagini, so I'm asking you a question. Etam pradarshini, pustaka pradarshini kimartam ayojita vantaha.
Yeah, I know the same thing.
Yeah, so I can also add ete etam.
So atra plural, right? Ete and etam?
No. Ete means these people.
People, I see, okay. Mm.
Etam means they are referring to Pradarshini.
Okay.
Because if it is Ayojitavantaha, we need a subject in the
sentence.
Plural form. Plural form. Kalu Bahuvachanam Avashyakam. Bahuvachanam Avashyakam. Ataha, we have Ete.
But Etam is referring to the book presentation.
Nischayana.
But Ete is referring to the Ayojitavantaha.
Samyak.
Okay.
Ayojitavantaha. Ke Ayojitavantaha? Ete Ayojitavantaha. Kim Ayojitavantaha? Pradarshinim Ayojitavantaha. Ki Disha Pradarshinim? Etam Pradarshinim Ayojitavantaha. Anantaram we have Kimartam Asta Prashnaha.
Oh, okay. It's a lot involved here. Okay.
Wonderful. Astha.
Bhagini, eka prashnah asti. Bhavati uktavati kimartam chaturthi vibhakti iti. Bhagini, what is the implication of that on the rest of the sentence? The fact that kimartam is chaturthi, does it have any implication on the rest of the sentence construction?
Yeah, are you talking about this sentence?
In any sentence. I mean, we know that kimartham is chaturthi vibhakti, right?
Correct. It leads to chaturthi, correct.
So, what is the implication of that particular vibhakti in any of the adjacent words or in any part of the sentence construction? Does it have any implication at all?
No, it doesn't.
Okay. So, this is just for our knowledge that kimartham happens to be associated with chaturthi vibhakti, right? Okay, fine.
Satyam.
Dhanyavada.
Dhanyavada. So, atra, pustakanam pracharam kartum. Pustakanam pracharam karanartam. Pustakanam pracharam karanaya. So, atra, pustakanam rupam kim? Pustakasya pustakayoho pustakanam.
Bahuvachanam. But napusaklinga.
Napumsakalingam. Shashti bahuvachanam. Pustakana. So, atra pustaka pradarshini. Pustakan. So, atra api samasta padamasti. Pustakanam pracharam kartum. Karanartam. Kimartam. So the answer is pustakanam pracharam kartum. सो अत्र महोदय वदतु
प्रचारम् इस् द्वितीया रैट्
प्रचारं कर्तुं
प्रचारं द्वितीया विभक्ति
आम् अत्र द्वितीया विभक्ति प्रचारं सो इफ् ऐ से प्रचारं भवति प्रचारम् इस् हेपनिङ्ग् देन् इट् इस् प्रथमा विभक्ति प्रचारं करोतु देन् इट् बिकम्स् द्वितीया हियर् इट् इस् द्वितीया
आम् भगिनी ऐ एम् सोरि ऐ हेव् वन् मोर् डौट् in this usage here ete pustak pradarshinim kimartham ayojitavantah ayojitavantah is plural to go with ete why have they organized this book exhibition
right
now suppose we rewrite the sentence as etam pustak pradarshinim like why has this exhibition been organized why should we use the plural form of organized would it still be ayojitavantah or what would it be bhagini because why has this exhibition been organized
then you are going it yeah so then you are going in the passive voice that is
passive voice
that is,
yes.
that is the karmani prayoga so atra
right.
so it will be it pradarshini ayojita it will be like that ayojita
so it will be etam pustaka pradarshinim kimartham ayojita is that
so it will be esha so for that karmani we cannot have it in dvitiya vibhakti it will be esha
okay then it becomes prathama okay
esha pradarshidada pradarshini
ha kimartham ayojita okay धन्यवादः भगिनि
धन्यवादः उत्तमप्रश्नाः भगिनि सर्वे उत्तमप्रश्नाः एव प्रश्नान् एव पृष्टवन्तः अस्तु पुस्तकप्रकाशकाः पब्लिशर्स् पुस्तकप्रकाशकाः पुस्तकानि विक्रेतुं क्रेतुं विक्रेतुं सो वेन् वि आड् उपसर्ग विपरीत अर्थम् आगच्छति क्रेतुं टु बै विक्रेतुं टु सेल् पुस्तकानि विक्रेतुं प्रदर्शयितुं प्रदर्शयितुम् इत्युक्ते टु शो
टु
शो विक्रेतुं प्रदर्शयितुं च अत्र आगच्छन्ति अस्तु अग्रे केतकी भगिनि अग्रे अग्रिमं वाक्यं पठतु अनन्तरं समापयामः जनाः
पुत्रः जनाः पुस्तकानि क्रेतुम् आगच्छति किल जनाः पुस्तकानि क्रेतुम् आगच्छन्ति किल पिता आम् केचन क्रेतुं पुनः केचन दृष्टम्
अस्तु सो अत्र दे आर् यूसिङ्ग् अ लाट् आफ् तुमुन् प्रत्यय खलु अत्र जनाः सो अत्र पुस्तकप्रकाशकाः विक्रेतुं प्रदर्शयितुं च अत्र आगच्छन्ति जनाः जनाः किमर्थम् आगच्छन्ति
पुस्तकानि क्रेतुं
पुस्तकानि क्रेतुम् आगच्छन्ति किल इति पुत्रः पृष्टवान् पिता वदति आम् केचन क्रेतुं केचन इत्युक्ते
सम्
सम् सम् केचन क्रेतुं पुनः केचन द्रष्टुमेव द्रष्टुं दोषः द्रष्टुम् आगच्छन्ति इति अस्ति अस्तु समयः अभवत् अग्रे पठामः बहु सुन्दरम् अस्ति एतत् सम्भाषणम् अस्तु
अस्तु भगिनि धन्यवादः
धन्यवादः शान्तिमन्त्रम् उक्त्वा समापयामः ॐ सर्वे भवन्तु सुखिनः सर्वे भद्रा पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति हरिः गुरुभ्यो नमः
हरिः धन्यवादः भगिनी
धन्यवादः धन्यवादः
धन्यवादः
धन्यवादः